इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। भारतेन गतदिने तदा ऐतिहासः विरचितः यदा भारतीय वायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सियम फोर चालकम् इत्येतं समेत्य स्पेस एक्स ड्रैगन अन्तरिक्षयानम् अन्ताराष्ट्रिय अन्तरिक्षस्थानकेन ISS सह सफलतया भारतीय समयानुसारं साय चतुर्वादने सम्मिलितम्। ISS याने चतुर्दश दिवसीय वैज्ञानिक अभियाने लखनऊ नगरस्य शुभांशु शुक्ला अमेरिकी पौलैंड हंगरी देशानाम् अन्य त्रिभिः अंतरिक्ष यात्रिभिः सह मिलित्वा हार्मोनी मॉड्यूल इत्यत्र स्थापितः। नासा समर्थनेन श्री शुक्ला इसरो तथा जैव प्रौद्योगिकी विभागेन संयुक्त रूपेण विकसितानाम् अग्रणी जीव विज्ञान प्रयोगाणाम् नेतृत्वं विधास्यति। केन्द्रीयः विज्ञान प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंह शुक्ला एतस्मिन् अवसरे सर्वेभ्यः अभियान सम्बद्धेभ्यः स्वीय वर्धापनानि दत्तवान्। चीनदेशे समायोजिते शंघाई सहयोग संघटनस्य रक्षामन्त्रिणाम् उपवेशने संयुक्त घोषणापत्रे हस्ताक्षरं कर्तुं भारतेन निराकृतम्। यतोहि एतस्मिन् संयुक्त घोषणापत्रे आतंक सम्बद्धानां गतिविधीनाम् उल्लेखं नासीत्। रक्षामन्त्रिणा संयुक्त घोषणापत्रस्य समर्थनं नैव करणे सम्मेलनम् एतत् संयुक्त विज्ञप्तिं विनैव समाप्तम्। नवदेहल्यां वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः प्रोक्तवान् यत् भारतं वाञ्छति स्म यत् प्रपत्रेषु आतंकवाद सम्बद्धाः चिन्तनीय विषयाः उल्लिखिताः स्युः, परं तत् एकेन विशेष देशेन अस्वीकार्यम् आसीत्। श्रीजायसवालः प्रोक्तवान् यत् उपवेशने रक्षामन्त्री राजनाथसिंहः सदस्यदेशैः सर्वरूप अभिव्यक्ति परम् आतंकवादं विरुध्य ऐक्य प्रदर्शनाय आह्वानं कृतवान्।
India wanted concerns on terrorism reflected in the document, which was not acceptable to one particular country, and therefore the statement was not adopted. But we had participation of our Raksha Mantri. We issued a press release. The press release is very instructive in how we look at threat of terrorism.
राष्ट्रिय स्वयं सेवक संघेन समाजवादी धर्म निरपेक्षः इत्येतयोः द्वयोः शब्दयोः समीक्षावानं कृतम्। संविधानस्य प्रस्तावनायाम् एतयोः शब्दयोः प्रयोगः आपत्काल अवधौ कृतम् आसीत्। अथ एतौ शब्दौ भीमराव अम्बेडकर द्वारा निर्मितस्य संविधानस्य भागम् नासीत्। आपत्कालस्य 50 वर्ष पूर्त्यवसरे कार्यक्रमम् एकं सम्बोधयन् राष्ट्रिय स्वयंसेवक संघस्य महासचिवः दत्तात्रेयः होसबोले इत्यसौ प्रतिपादितवान् यत् भीमराव अम्बेडकरस्य संविधानस्य प्रस्तावनायाम् एतयोः शब्दयोः प्रयोगः नैव कृतः।
आपातकाल के दौरान भारत के संविधान के प्रस्तावना में प्रियम्बल में दो शब्द जोड़े गए हैं। लोगों को मालूम है सेक्युलरिज्म और सोशलिज्म के, वो प्रस्तावना में नहीं थे पहले, उन दो शब्दों को जोड़ा है। बाद में इसको निकालने के प्रयत्न हुआ नहीं है। चर्चा हुई, दोनों प्रकार के आर्ग्यूमेंट्स हुए, तो क्या वो रहनी चाहिए प्रस्तावना में, ये विचार होना चाहिए।
जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हा वर्यः श्रीनगरस्थे राजभवने राजनीतिक नेतृभिः समं उपवेशनं कृतवान्। अथ जुलाई मासे समायोक्ष्यमाणायाः अमरनाथ यात्रायाः सुरक्षा सज्जा विषये चर्चां कृतवान्। उपवेशने एतस्मिन् जम्मू कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला, भारतीय जनता पार्टी दलस्य, कांग्रेस दलस्य, पीडीपी दलस्य च नेतारः सम्मिलिताः। भारतीय ऋतुविज्ञान विभागेन ज्ञापितं यत् आगामि 2-3 दिनेषु उत्तरी राजस्थानं, पंजाब, हरियाणा, दिल्ली प्रदेशेषु च अतिवृष्टिः संभाविता। विभागानुसारेण पूर्वी राजस्थान, गुजरात, उत्तराखण्ड, पश्चिम मध्यप्रदेशस्य भिन्नेषु भागेषु अद्य अतिवृष्टिः संभाविता इति वार्ताः।